एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। सत्तापक्षीय दलैः आवश्यकतायाः आधारेण अध्यादेशाः आनीताः सन्तीत्यतः विषयेऽस्मिन् सर्वेषाम् ऐकमतम् अस्तीति उक्तम् वर्तते। संघीय संसदः शीतकालिकाधिवेशने सत्तापक्षस्य पूर्वकार्याणाम् सर्वकारस्य कार्याणाम् प्रभावकारिता प्रभृतिषु विषयेषु विमृष्टुम् ह्यः आयोजिते उपवेशे सत्तापक्षस्य नेतारः यथाशीघ्रम् संसदे विधेयकम् प्रस्तुत्य पारितीकरणाय च निर्णीतमस्ति। संसदुपवेशे सत्तापक्षीयरूपेण प्रभावकारितया समानधारणया सह प्रस्तुतः भवितुम् उपवेशेन निर्णीतमस्तीति एमाले दलस्य प्रमुख सचेतक पदीयो महेश बर्तौला अज्ञापयत्। प्रधानमन्त्रिणः केपी शर्मा ओलिनः आह्वाने बालुवाचारवर्तिनी प्रधानमन्त्री निवासे उपवेशेन सर्वकारस्य कार्याणि अतिरिक्तं प्रभावकारिणी विधेयानीति निष्कर्षः प्रकाशितोऽस्ति। उपवेशे प्रधानमन्त्री ओली जनतायै सेवां प्रदातुं विकास निर्माणस्य कार्याय गतिं प्रदातुं अत्यावश्यकः अध्यादेशः संसदः प्रथमदिने एव प्रस्तोष्यन्ते, शीघ्रमेव च विधेयकानां प्रस्तुतिश्च भविष्यतीति अवोचत्। अस्यैव माघमासस्य अष्टादश दिवसात् प्रारप्स्यमाणस्य संसदः शीतकालिकाधिवेशनस्य कार्यतालिका निर्धारिता अस्ति। सभामुखस्य देवराज घिमिरेभिदस्य अध्यक्षतायाम् ह्यः सिंहप्रासादे उपविष्टेन दलानाम् प्रमुख सचेतकपदीयानाम् चोपवेशेन माघमासस्य कृते कार्यतालिका निर्धारिता अस्ति। उपवेशानन्तरम् संचारकर्मिभिः सह नेकपा एमाले दलस्य प्रमुख सचेतकपदीयः महेश बर्तौला संसदः शीतकालिकाधिवेशनस्य माघमासस्य कार्यतालिका निर्मिता अस्तीति अज्ञापयत्। संसदः प्रथमे दिवसे प्रधानमन्त्री दलानां शीर्षनेतारश्च सम्बोधनं करिष्यन्ति। तस्मिन्नेव दिवसे सर्वकारेण आनीताः विभिन्नाः अध्यादेशाः संसदि प्रस्तोष्यन्ते। प्रधानमन्त्री केपी शर्मा ओली निगदति संसदः शीतकालिकाधिवेशने विधीनां निर्माणकार्यं व्यापकतया अग्रे निश्यते। ह्यः भक्तपुरस्य सूर्यविनायक नगरपालिकायाः प्रशासकीय भवनस्य उद्घाटनं विदधानः प्रधानमन्त्री ओली सहमतौ जातायां शीघ्रमेव संविधान संशोधनं भविष्यति, सहमत्यभावे विलम्बनं सम्भविष्यतीति समस्पष्टयत्। प्रधानमन्त्री ओली पूर्वं विहितायाः सहमतेरनुसारेण अधुना आत्मना कांग्रेसदलात् पूर्णतया सहयोगो लब्धोऽस्ति, आगामिनि समये नेपाली कांग्रेसदलस्य नेतृत्वे संघटयिष्यतः सर्वकारस्यापि एमाले दलेन पूर्णतया सहयोगो विधास्यते इति प्रावोचत्। नेपाली कांग्रेसदलस्य सभापतिः शेरबहादुर देउवा सांसदै सह समन्वयं विधाय अग्रे वर्धितुं मन्त्रिणः निर्देशति। नयाँ वानेश्वरवर्तिनी संसद भवने ह्य उपविष्टे संसदीय दलस्य उपवेशे सभापतिः देउवा मन्त्रिणः आवश्यक समन्वयं विधाय अग्रे वर्धितुं निर्देशत् इति सांसदः रामहरि खतिवडा अवोचत्। खतिवडाभिदस्य अनुसारेण उपवेशे सांसदैः अध्यादेशस्य आनयनस्य विषये न संसूचितम् इत्युक्त्वा मन्त्रिणां कार्यक्षमतायां प्रश्नः उत्थापितः आसीत्। विषयेऽस्मिन् मन्त्रिभिः उत्तरं देयमस्तीत्यतः माघमासस्य अष्टादशे दिवसे प्रातः अष्टवादने उपवेशस्य उपवेशनत्वेन ह्यस्तनोपवेशः स्थगितीभूतो वर्तते। उपवेशे सांसदैः विपुलदलद्वयं मिलित्वा निर्मितेन वर्तमान सर्वकारेण अपेक्षाकृतकार्येण सम्पादिते जनतायां नैराश्यम् आगमिष्यतीत्यतः गभीरः सन्तो अग्रे वर्धनीयमिति धारणा उपस्थापिता आसीत्। अद्य हुतात्मना गंगालाल श्रेष्ठेन दशरथ चन्देन च अमरत्वं लब्धे शोभा भगवती स्थाने विद्यमानायाम् एतयोः प्रतिमयोः श्रद्धाञ्जलिः समर्प्यते। तस्मिन् समये राणा सर्वकारस्य शासनस्य शासकस्य च विरुद्धं कार्यं कृतमिति अभियोगे अनयोः द्वयोः शोभा भगवती स्थाने गोलिका प्रहारेण हत्या विहिता आसीत्। प्रजातन्त्रस्य स्थापनायै स्वतन्त्रतायै च निरंकुशस्य राणा शासनस्य विरुद्धम् आन्दोलनं कृतमिति हेतुः राणा सर्वकारेण सप्तनवत्युत्तरैकोनविंशतितमस्य वैक्रमादस्य माघमासस्य दशमे दिवसे काष्ठमण्डपस्य टेकुस्थाने शुक्रराजशास्त्रिणे, माघमासस्य त्रयोदश दिवसे काष्ठमण्डपस्यैव सिफलस्थाने धर्मभक्तमाथेमा विधाय माघमासस्यैव पञ्चदश दिवसे शोभा भगवती स्थाने दशरथ चन्दाय गंगालाल श्रेष्ठाय च मृत्युदण्डः प्रदत्तः आसीत्। अतः मुख्यतः तेषामेव चतुर्णाम हुतात्मनाम योगदानं संस्मृत्य नेपाले द्वादशोत्तर द्विसहस्रतम वैक्रमाब्दात् प्रतिवर्षं माघमासस्य दशम दिवसात् षोडश दिवसं यावत् हुतात्म सप्ताह समायोज्यते। कोशी राजमार्गस्य अन्तर्गतं संखुआसभा जनपदस्य खादबारी स्थानात् किमाथांका स्थान पारेन्तिकस्य मार्गस्य पारिगमन कार्यं सम्भूतमस्ति। संखुआसभा जनपदस्य मुख्यालयात् खादबारी स्थानात् चीनदेशस्य उत्तर दिशः सीमा प्रवेश बिन्दुः किमाथांका स्थान पर्यन्तस्य अष्टपञ्चाशदुत्तर शत किलोमीटर मित मार्गस्य पारिगमन कार्यस्य समाप्त्या सहैव मार्गस्य पारिगमन कार्यं ह्यः सम्पन्नमस्ति। भोजखोला ग्रामपालिकायाः प्रथमौडा क्षेत्रस्य च्याम्ताङ स्थाने संखुआसभा जनपदस्य प्रतिनिधिसभा सदस्य ऊर्जा जलस्रोत सेचन मन्त्री दीपक खड्का, रक्षा मन्त्री मानवीर राई, भौतिक पूर्वाधार यातायात मन्त्री देवेन्द्र दाहालश्च तदवसरे उपस्थिता आसन्। मार्गस्य पारिगमन कार्येण सहैव चीन भारतयोः योजकस्य कोशी राजमार्गस्य पारगमन कार्यस्य समाप्तेः पश्चात् अतः परं मार्गस्य स्तरोन्नतेः मार्ग विस्तारस्य च कार्यं भविष्यति। कार्यक्रमे मन्त्री खड्का मार्गस्य पारिगमन कार्येण सहैव त्रिदेशीय पारवहन कार्ये महत्वपूर्ण भूमिकायाः निर्वहणं भविष्यति इति प्रावोचत्। पूर्व राष्ट्रपतिः विद्यादेवी भण्डारी राजनीतौ रुचिः सत्यपि दलस्य दायित्व निर्वाहस्य चरणे आत्मना चिन्तनं नास्तीति स्पष्टयति। विराटनगरे ह्यः संचारकर्मिभिः सह पूर्व राष्ट्रपतिः भण्डारी राष्ट्रपतेः प्रणाली पदं च राजनीतेर्भिन्नं नास्ति इति अगदत्। पूर्व राष्ट्रपतिः भण्डारी राष्ट्रस्य समग्रे विकासे सर्वेषामेव भूमिका महत्वपूर्णा भवतीत्यतः स्व स्व स्थानात् भूमिकां निर्वोढुं सर्वान् अनुरुणत्। सर्वकारेण चतुस्सप्तत्यधिक द्विसहस्रतम वैक्रमाब्दस्य सहकार्यधिनियमस्य संशोधनं विधातुं क्रियान्वितस्य अध्यादेशस्य अनुसारेण राष्ट्रिय सहकारी नियमन प्राधिकरणस्य कार्यालयः सञ्चालितोऽस्ति। तात्कालिक्या राष्ट्रिय सहकारी विकास समित्या पुल्चोक वर्तिनी भवने ह्य आयोजिते कार्यक्रमे भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्री बलराम अधिकारी प्राधिकरणस्य कार्यालयम् उद्घाटयत्। तदवसरे मन्त्री अधिकारी प्राधिकरणस्य अध्यक्षं सदस्यञ्च शपथम् अग्राहयत्। कार्यक्रमं सम्बोधयन् मन्त्री अधिकारी सहकारी संस्थायां सम्भूतायाः अनियमिततायाः अनुसन्धानं विधाय प्राधिकरणेन कार्यं विधीयते इति अभाषत। प्राधिकरणस्य अध्यक्षः मन्त्रालयस्य सचिवः अर्जुन प्रसाद पोखरेलः, राष्ट्रिय सहकारी महासंघस्य अध्यक्षः ओमदेवी मल्लश्च सहकारी संस्थायाः समस्याः समाधीयते इति अवदताम् इति समाचारः।